எனக்கு நீ பேசி தெரியுமா சார், வாட்ஸ் அப் நம்பர் டவுட்.
எனக்கு டிக்கெட் அனுப்பி ஜோர்தான் ஆர்டர் பண்ணு.
இச்சாலா
ஓகே
அஜினோ ஃபியோ மெத்தட் கம்மி பண்ணுங்க. ለመቼ ነው መጓዝ የሚፈልጉት? ቀኑ ለመቼ ነው
የሚፈልጉት?
ሜጃ ብቻ ነው የሚፈልጉት ወይስ ደርሶ መልስ ነው? ሜጃ ብቻ በረራ አለ፣ ነገር ግን የቀጥታ በረራ አይደለም ያለው። እሺ፣
ትራንዚት ነው።
ትራንዚት ነው ወይ በጅዳን ያለው ወይ በሪያድ ነው ያለው ወይ በደማም ነው ያለው። እነዚህ ኦፕሽኖች ናቸው ያሉ። በሳውዲ ኤር ነው ኦፕሽኖቹ ያሉ። በቻይና 58,329 ሲሆን በሳውዲ ኤር ደግሞ 88,559 ብር ነው ዝቅተኛ ዋጋ። ይሄ ግን አሁን የነገርኩት በብር ነው። እርስዎ የሚከፍሉት በዶላር ስለሆነ ከዛ ብቻ ነው መግዛት
የሚችሉት። በዲርሃም ነው የሚከፍለው? በዶላር ነው።
በዶላር ነው የሚከፍለው። 560 ዶላር ይሆናል። በርስ ላይ ነው ሳውዲ ኤር 22 ዶላር ይሆናል። አመሰግናለሁ።